अष्टमोऽध्यायः अष्टावक्रेण बन्धमुक्तिलक्षणम् उक्त्वा रिक्ताहङ्कारः सन् हेयोपादेयविहीनः विहरेत्युपदेशः। अष्टावक्र उवाच, तदा बन्धो यदा चित्तम् किञ्चित् वाञ्छति शोचति, किञ्चिन्मुञ्जति गृह्णाति, किञ्चित् हृष्यति कुप्यति, तदा मुक्तिर्यदा चित्तम् न वाञ्छति न शोचति, न मुञ्चति न गृह्णाति, न हृष्यति न कुप्यति। तदा बन्धो यदा चित्तम् सक्तम् कास्वपि दृष्टिषु, तदा मोक्षो यदा चित्तम् असक्तम् सर्वदृष्टिषु। यदा नाहम् तदा मोक्षः, यदाहम् बन्धनम् तदा, मत्वेति हेलया किञ्चित् मा गृहाण विमुञ्च मा। ॐ।